इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। प्रधानमन्त्रिणा नरेन्द्रमोदिना अद्य नवदिल्ल्याः नीत्यायोगे प्रतिष्ठितैः अर्थशास्त्रिभिः सह आयव्ययसंकल्पनायाः प्राक्परामर्शसमित्यां भागः स्वीकृतः। केन्द्रप्रशासनेन ग्रामीणविकासाय उत्तरप्रदेशान्ध्रप्रदेशयोः कृते 15तमस्य वित्तायोगस्य अन्तर्गतं 2,000 कोटिरूप्यकाणाम् अनुदानम् अनावृत्तम्। राष्ट्रियोपभोक्तृदिवसावसरे केन्द्रीय उपभोक्तृविषयकमन्त्री प्रह्लादजोशी अद्य ई वाणिज्यिकमञ्चेषु उद्यमगतभ्रामकप्रथानाम् अभिज्ञानम् उपभोक्तृणां शक्तिकरणं च उद्दिश्य नैकान् उपक्रमान् समारभत। ऋतुविज्ञानविभागीयः महानिदेशकः सूचितवान् यत् भारतीय ऋतुविज्ञानविभागस्य पूर्वानुमानस्य यथार्थता विगतेषु 10 वर्षेषु 40%-तः 50% यावत् वर्धिता अस्ति। अपि च भारतीय क्रिकेट नियंत्रण मण्डलेन VCCI इत्यनेन 25-2000तमवर्षाय 19 वयोवर्गीयायाः 20-प्रतिस्पर्धायाः कृते 15-सदस्यात्मिकीय भारतीय महिला क्रिकेट दलस्य घोषणा कृता। अथ वार्ताः विस्तरेण। प्रधानमन्त्रिणा नरेन्द्रमोदिना अद्य नवदिल्ल्याः नीत्यायोगे प्रतिष्ठितैः अर्थशास्त्रज्ञैः सह आयव्ययसंकल्पनायाः प्राक् विहितपरामर्शसमित्यां भागः स्वीकृतः। केन्द्रीयवित्तमन्त्री निर्मलासीतारामनः इत्येषा नीत्यायोगस्य प्रमुखः BVR सुब्रह्मण्यम् इत्येषः अन्ये च वरिष्ठाधिकारिणः च सञ्जातोपवेशने भागं स्वीकृतवन्तः। केन्द्रीयायव्ययसंकल्पना 25-2000-2000तमवर्षयोः पूर्व आयव्ययसंकल्पनापरामर्शम् अस्मिन् मासे 6 दिनांके आरब्धः। श्रीमती सीतारामनः इत्येषा विभिन्नराज्यानां वित्तमन्त्रिभिः कृषकसंघैः अर्थशास्त्रिभिः सूक्ष्म लघु मध्यम उद्योगानां संस्थाभिः च सह परामर्शं कृतवती। केन्द्रीय वित्तमन्त्री आगामिनः फरवरी मासस्य प्रथमे दिनांके लोकसभायां 25-2000-26-2000तमवर्षयोः आयव्ययसंकल्पनापत्रं प्रस्तोतुं शक्नोति इति। केन्द्रप्रशासनेन ग्राम्यविकासाय उत्तरप्रदेशान्ध्रप्रदेशयोः कृते 2,000 कोटिरूप्यकाणां 15तमस्य वित्तायोगस्य अनुदानम् अनावृत्तम्। पंचायती राजमन्त्रालयेन उक्तं यत् उत्तरप्रदेशस्य कृते 98.5 लाख कोटिरूप्यकाणि, आन्ध्रप्रदेशस्य कृते च 44.4 लाख कोटिरूप्यकाणि अनुमोदितानि। प्रदत्तानुदानानाम् उपयोगः पंचायतीराजविभागैः तथा च ग्रामीणस्थानीयनिकायेन विशिष्टस्थानानाम् आवश्यकतायै क्रियते। मन्त्रालयेनोक्तं यत् ग्रामीणस्थानीयशासनस्य परिदृश्यं परिवर्तयितुं प्रशासनं पंचायतीराजसंस्थानां ग्रामीणस्थायनिकायानां कृते च प्रत्यक्षतया अनुदानं प्रददाति। राष्ट्रियोपभोक्तृदिवसावसरे केन्द्रीय उपभोक्तृविषयकमन्त्री प्रह्लादजोशी अद्य ई वाणिज्यिकमञ्चेषु उद्यमगतभ्रामकप्रथानाम् अभिज्ञानम् उपभोक्तृणां शक्तिकरणं च उद्दिश्य नैकान् उपक्रमान् समारभत। श्रीजोशी उपभोक्तृणां रक्षणाय ई वाणिज्यिकमञ्चेषु उद्यमगतभ्रामकप्रथानाम् अभिज्ञानाय च जागो ग्राहक जागो, जागृति, जागृति डैशबोर्ड इत्येते तन्त्रांशाः उद्घाटितवान्। जागो ग्राहक जागो इति तन्त्रांशः उपभोक्तुः आन्तर्जालिक क्रियाकलापावधौ सर्वेषां URL इत्येतेषां विषये आवश्यकीम् ई वाणिज्यिक सूचनां प्रदास्यति। यदि कोऽपि URL इति असुरक्षितो भवितुमर्हति अपि च अवधानं तत्र आवश्यकं वा भवति तर्हि सूचयिष्यति। प्रह्लादजोशी स्वसन्देशे उपभोक्तुः अधिकाराणां रक्षणाय शक्तिकरणाय च प्रशासकीय प्रतिबद्धतायाः प्रतिपुष्टिं कृतवान्। श्रीजोशी इत्यनेन सर्वे हितधारकाः व्यापार ई वाणिज्य मञ्चः नागरिक समाजः विनियामक प्राधिकरणानि च नैतिक आचरणानां दृढ उपभोक्तृ अधिकाराणां च प्रोत्साहनाय मिलित्वा कार्यं कर्तुं प्रार्थितम्। देशे उपभोक्ति कगान्त्रेः महत्वं प्रकाशयितुं प्रतिवर्षं दिसंबर मासस्य चतुर्विंशे दिनांके राष्ट्रिय उपभोक्तृ दिवसः आचर्यते। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज़ आन् एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। उपराष्ट्रपति जगदीप धनखड़ः श्वः आरभ्य तेलंगाना राज्यस्य मेडक हैदराबाद नगरयोः द्विदिवसीय यात्रायां गच्छति इति। स्वयात्रा प्रवासे श्री धनखड़ः तेलंगाना राज्यस्य टुनिकी नगरे भारतीय कृषि अनुसंधान कृषि विज्ञान केन्द्रे प्राकृतिक जैविक कृषक शिखर सम्मेलने मुख्यातिथिरूपेण सम्मिलितो भविष्यति। पूर्व प्रधानमन्त्रिणः अटल बिहारी वाजपेयी वर्यस्य सततमे जयन्त्यवसरे प्रधानमन्त्री नरेन्द्र मोदी श्वः मध्यप्रदेशस्य यात्रार्थं गमिष्यति। असौ खजुराहो इत्यत्र बहुविध विकास परियोजनानां उद्घाटनम् आधारशिलां च स्थापयिष्यति। प्रधानमन्त्री राष्ट्रिय दृष्टिकोण योजनायाः अन्तर्गतं देशस्य प्रथमा नद्यानां परस्पर संयोजन परियोजनायाः केन बेतवा नदी संयोजक राष्ट्रिय परियोजनायाः आधारशिलां स्थापयिष्यति। एषा परियोजना मध्यप्रदेशस्य उत्तरप्रदेशस्य च विभिन्न जनपदेभ्यः सिंचन सौविध्यानि प्रदास्यति, येन लक्षशः कृषक परिवाराः लाभान्विताः भविष्यन्ति। अस्याः परियोजनायाः कारणात् अस्य क्षेत्रस्य जनानां कृते पेयजलापूर्तिरपि भविष्यति। प्रधानमन्त्री श्रीमोदी अटल बिहारी वाजपेयी वर्यस्य शततमस्य जन्मदिवसस्य अवसरे प्रैष्य चिटिकायाः पत्रं मुद्रायाः च विमोचनं करिष्यति। सः 350+ यावत् अटल ग्राम सुशासन भवनानाम् आधारशिलामपि स्थापयिष्यति। एतानि भवनानि स्थानीय स्तरे सुशासनं प्रति नेतुं ग्राम पञ्चायतानां कार्यस्य व्यावहारिक संचालने उत्तरदायित्वस्य च महत्वपूर्णां भूमिकां निर्वहन्ति इति। भारतीय ऋतु विज्ञान विभागस्य पूर्वानुमानस्य यथार्थता विगतेषु 10 वर्षेषु 40%-तः 50% यावद् वर्धिता अस्ति। प्रसारमाध्यमैः सह वार्तालापं कुर्वन् ऋतुविज्ञान विभागीयः महानिदेशकः मृत्युञ्जय महापात्रा इत्ययम् अवदत् यत् प्रचण्ड वृष्टेः पूर्वानुमानस्य यथार्थतापि 60%-80% यावत् वर्धिता अस्ति।
भारत मौसम विज्ञान विभाग पूरी तरह से सेल्फ रिलायंट है। नाउ हमारे पास 550 डिपार्टमेंटल ऑब्जर्वेटरीज है, मोर देन 2000 ऑटोमेटेड वेदर स्टेशन है, डॉपलर वेदर रडार है 39 प्लेसेस में और 34 रडार ऑर्डर हो चुका है जो कि 2026 के बिगिन तक आने का संभावना है। नेक्स्ट 5 ईयर्स में हमारा फोरकास्ट एक्यूरेसी और 10-15% है। अभी हम रिसेंटली एक प्रोग्राम शुरू किए हैं, हर हर मौसम हर घर मौसम, हर घर में हर टाइम फोरकास्ट देने के लिए हम कोशिश कर रहे हैं। इसके लिए हम एक मौसम मोबाइल ऐप डेवलप किए है, मौसम ऐप में एक मौसम ग्राम है, मौसम ग्राम को जाएंगे तो जहां आप खड़े हैं वहां आपको फोरकास्ट मिलेगा।
प्रसिद्ध चलचित्र निर्देशक श्याम बेनेगल गत दिने मुंबईयां दिवंगत। सह 90 वर्षीय आसीत। वृक्क संबंधी रोगेण पीड़ित बेनेगल मुंबई नगरियां एकस्मिन् चिकित्सालये स्वप्राणान् अत्यजत्। प्रख्यातस्य चलचित्र निर्मातुः श्याम बेनेगलस्य अद्य मध्याह्ने दादर नगरस्य शिवाजी पार्क इत्यस्मिन् श्मशानघट्टे पूर्णेन राजकीय सम्मानेन अन्तिमसंस्कारः विहितः। भारतीय क्रिकेट नियंत्रण मण्डलेन बीसीसीआई इत्यनेन 25,000-2,000 वर्षाय 19 वयोवर्गीयायाः 20-प्रति-20 प्रतिस्पर्धायाः कृते 15-सदस्यात्मिकीय भारतीय महिला क्रिकेट दलस्य घोषणा कृता। निकी प्रसादः अस्य दलस्य नेतृत्वं विधास्यति इति वार्ताः।